अहं ब्रह्मास्मि इति ज्ञानं श्रेष्ठं सर्वोत्तमं परम् शिष्योऽसि मे प्रियतमा पन्था वक्ष्यामि ते हितम् न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते स्वभावजेन हे प्राज्ञा निबद्धस्वेन कर्मणा उत्तिष्ठ हे प्राज्ञा युद्धाय कृत निश्चयः अहं ब्रह्मास्मि इति ज्ञात्वा जित्वा शत्रून् विमोक्ष्यसि